पूर्वं हि देवानां असुराणां च समरे केकयस्य सुतया दशरथस्य जीवितं रक्षितं तस्मात् सा नृपेण उक्ता प्रिये मया द्वे वरे तव दत्ते यद् याचिष्यसि तत् करिष्यामि इति। एतद् वचनं श्रुत्वा सा बहु तुष्टा ते वरे च स्मृत्वा अद्य दशरथः रामस्य गमनं तया दृष्टः उक्तः च रामेण वनं गन्तव्यम् इति।